तत्र सादृश्यं कल्पितं कविना. अत्र समुद्रमथनस्य कथं प्रसक्तिः इत्युक्ते, आञ्जनेयः तादृशं राक्षसान् ताडितवान्, प्रहृतवान्, मारितवान् यत् समग्रायाः लङ्कायाः एव मथनं जातम्. अतः एव अत्र समुद्रमथनस्य प्रसक्तिः, प्रासङ्गिकता, रेलेवेन्स् अस्ति. ब्रह्मा अत्र समुद्रमथनं कारितवान्, विष्णुः समुद्रमथन क्षीरसागरस्य मथनं यथा कृतवान्, अत्र ब्रह्मा साक्षात् ब्रह्मदेवः लङ्का इति समुद्रस्य मथनं कारितवान्. तर्हि मन्थानः कः? मथनदण्डः हनुमान्. तत्र वासुकीसर्पः यथा, अत्र रज्जुः का इत्युक्ते अत्र वानरैः कृतः पाशः एव रज्जुः, वासुकीसर्पः.
पाशः,
पाशः सूत्रैः राक्षसाः बन्धनं कृतवन्तः किल आञ्जनेयं, तदेव इदानीं वासुकीसर्पः इव उत्प्रेक्षते कविः. पुनः तत्र देवानाम् असुराणां मथनेन सागरस्य तरङ्गाः अत्यन्तं विचलिताः भवन्ति. अत्र किम् इति चेत्, पुनः वानरसैन्यस्य इतस्ततः धावनं, कूर्दनं, पतनं, मरणम्, एतत् सर्वम् अत्यन्तं सर्वं विचलितमस्ति किल, आलोडितमस्ति. तथा राक्षससैन्यमेव समुद्रतरङ्गाः. तर्हि तस्मात् क्षीरसमुद्रात् आविर्भूता लक्ष्मीदेवी, सैन्धवी, सिन्धुकन्या. तां सिन्धुकन्यां विष्णवे, सा सिन्धुकन्या भगवन्तं विष्णुं वरमालां समर्प्य तं पतिरूपेण स्वीकृतवती. अत्र किं जातं? सीतारूपलक्ष्मीं रामरूपविष्णवे प्रदातुम् अत्र ब्रह्मा लङ्कासमुद्रस्य मथनं कृतवान्. लङ्कारूपसमुद्रं, लङ्कानगरमेव समुद्रम् इति भाव इति कल्पनां कृत्वा सः अत्र वर्णयति. सीताभिधानकमलां प्रभवे प्रदातुं लङ्कार्णवं क्षुभितसैन्यतरङ्गभीमं वेधा ममन्थ किल रज्जुभुजङ्गराजभोगावृतेन पवनात्मजमन्दरेण. अत्र ब्रह्मा इति पदं किम् इति चेत् वेधाः, वेधस्य शब्दः. अग्रिमं श्लोकं प्रति गच्छामः. अत्र किं वर्णयति? लङ्का दग्धा. यदा लङ्का दह्यमाना अस्ति तदा ततः धूमराशिः उपरि गच्छति. सः धूमराशिः कथं दृश्यते? कविः उत्प्रेक्षमाणः वदति, यस्य यथा दृष्टिः तस्य तथा सा धूम संहतिः धूम्या दृश्यते. ये सज्जनाः तेषां कृते शुभसूचिका, ये दुर्जनाः तेषां कृते अशुभसूचिका इति. रक्षस्त्रीवदनारविन्दरजनीं विश्वम्भराबर्हिणी वर्षारम्भदशां दशाननयशः कादम्बकादम्बिनीं वैधव्योचितवेषनिश्चितमनोलङ्कावधूती जटां वैदेह्यास्त्रिजटा समा समकिरद्धूम्यां हनुमान् दिवि. हनुमान् आकाशे धूम्यां समकिरत्. हनुमान् आकाशे धूमराशिं प्रासारयत् इति भावः. सः धूमराशिः कस्य कस्य दृष्ट्या कथं कथं दृश्यते इति एव अत्र वर्णनम्. रक्षस्त्रीणां, राक्षसयुवतीनां मुखकमलानां संकोचप्रदा सा धूम्या. यथा सूर्यस्य अभावे रात्रौ कमलं संकोचदशां प्राप्नोति तथैव राक्षसानां मुखाय एषा धूम्या रजनी रात्रिः भवति किन्तु विपरीतं पश्यतु भूमि या रावणस्य अराजकतां सहते रावणस्य असहमाना सा पीडाम् अनुभवति रावणस्य दौर्जन्यम् असहमाना सा पीडाम् अनुभवति तस्याः भूमिरूप मयूरीरूपभूम्याः कृते एषा धूम्या मेघाः वर्षारम्भकालमेघाः एव सन्तोषप्रदाः भवन्ति इति वर्णनम् पुनः दशानन यशः कादम्ब कादम्बिनी कादम्बाः इत्युक्ते पक्षिविशेषः डक्स् इति वदामः ते मेघान् दृष्ट्वा अपगच्छन्ति तथैव दशानन यशः रूप दशाननस्य यशः अपि अपगच्छति इति अत्र मेघमाला इव तद् तस्य वर्णनं भवति धूम्या सा धूम्या मेघमाला इव आच्छादयति रावणस्य यशः न प्रकाशयति आच्छादयति रावणस्य यशः अपगच्छति इति यथा कादम्बाः अपगच्छन्ति तथा रावणस्य यशः अपि अपगच्छति पुनः वैधव्योचितवेषनिश्चितमनो लङ्कावधूती जटा एकतः लङ्कानगरी रूपकन्या लङ्कानगरी रूपवराङ्गना स्त्री या राज्यलक्ष्मी अस्ति किल तस्याः इदानीं वैधव्यकालः सन्निहितः यथा महाराजस्य राज्ञी भवति एव राज्ञी महाराज्ञी भवति तद्विहाय राज्यलक्ष्मी अपि राज्ञः पत्नी इति उच्यते तद् गतवर्गे तद् स्पष्टतया नोक्तं मया अनन्तरं मुद्दुलक्ष्मी भगिन्या अपि तद् विषये उक्तम् अतः इदानीं स्मारयामि राज्यलक्ष्म्याः इदानीं महाराजस्य अभावे शीघ्रमेव रावणस्य वधः भवति किल अतः तदभावे सा वैधव्यदशा प्राप्स्यति किन्तु अपरतः अन्य पक्षे वैदेह्याः त्रिजटासमां समं त्रिजटासमा शुभं शुभ शुभसूचिका भवति इति एवं सा एव धूम्या भिन्नभिन्न विविधजनस्य विविध तत्तत् जनस्य मनोभावम् अनुसृत्य तत्तज्जनस्य आनुकूल्यं वा प्रातिकूल्यं वा इति तदनुसृत्य तत् तथा दृश्यते अग्रे अग्रिमं श्लोकम् एतत् विक्रमवीक्षणम् आञ्जनेयस्य पराक्रमं पश्यन्ति के विद्याधराः किन्नराः इति पश्यन्ति वयं रावणे रामायणे श्रीमद्वाल्मीकिरामायणे अपि श्रुतवन्तः गतवर्गे कथां यत् विद्याधराः किन्नराः ते तेषां वाणीं शृणोति आञ्जनेयः यत् सीता न दग्धा अन्यत् सर्वं दग्धं लङ्कायाम् इति तथैव इदानीं वर्णयति कविः विद्याधराः अत्यन्तं सन्तुष्टाः किम् आञ्जनेयस्य पराक्रमं रावणस्य सम्भावितः पराजयः इति एतद् दृष्ट्वा तेषां महान् हर्षः तेषाम् आनन्दबाष्पवारि प्रवहति नेत्राभ्यां किन्तु ते तद् प्रकटयितुं नेच्छन्ति कारणं किं तेषां रावणतः महती भीतिः किन्तु इदानीं ते आनन्दबाष्पवारिं मोक्तुं मोचयितुम् इदानीम् एकं व्याजं प्राप्तवन्तः किम् इत्युक्ते धूम्या अस्ति धूमः अस्ति अतः अस्माकं नेत्राभ्याम् अश्रूणि प्रवहन्ति न तु हर्षकारणात् इति ते धैर्येण वक्तुं शक्नुवन्ति इति अत्र श्लोकः। एतद्विक्रमवीक्षणेन जनितामानन्दबाष्पोद्गतिं रक्षोनाथ भयात् पिधातु मनसां विद्याधराणां मुदा राजव्याहृतये यथा परिणमे धूम्या तथोज्जृम्भते स्वर्लोकेऽपि कलिन्दशैलतनया कल्लोलशङ्कावहा। एषा धूम्या कथं दृश्यते इत्युक्ते स्वर्लोक यमुना इव, सामान्यतया स्वर्लोक गङ्गा इति शृणुमः, स्वर्गलोक आकाशगङ्गा इति। अत्र किमर्थं कविः यमुना इति वदति इत्युक्ते कलिन्दी कृष्णवर्णीया अस्ति धूम्या, तथैव यमुना अपि, अतः यमुनया अत्र सादृश्यं कल्पितम्। अग्रे अद्यतन तस्य पठनं श्लोकः अस्ति आदौ नीलांशुकश्रीः, पुनः धूम्या कथम् उत्थिता तत् कथं दृश्यते इति वर्णनमस्ति। अस्मिन्नेव ग्रन्थे आरम्भे वयम् एकं श्लोकं पठितवन्तः, सप्तमः श्लोकः। अहं केवलं तद् पठामि, पुनस्मारणं भवति चेत्। समान भावः अत्रापि कविना प्रदर्शितः। उज्जृम्भितस्य तरसा सुरसां विजेतुं पादौ पयोधिकलितौ पवमानसूनोः तस्योत्तमाङ्गम् अभवत् गगनस्रवन्ती वीचीचय स्खलितसीकरमालभारी इति वदति। यदा हनुमान् हनुमतः सुरसां दृष्ट्वा हनुमतः गात्रं प्रवृद्धं वर्धमानं बृहत् अभवत् किल, बृहत्तरं बृहत्तरं जातं, तदा हनुमान् यदा यदा वर्धते समुद्रतलात् सः अत्यन्तम् उपरि गच्छति किल, मुखम् उपरि अस्ति, बाहू कण्ठः सर्वम् उपरि गच्छति, किन्तु पादौ पयोधिकलितौ, पादौ समुद्रजले स्तः। तदा यदा तरङ्गाः उत्थिताः भवन्ति, तरङ्गसीकराः जलबिन्दवः, ते यदा उपरि गच्छन्ति तदा माला इव, आञ्जनेयस्य माला इव शोभां धरन्ति इति तत्र वर्णनमासीत्। पूर्वं कथमासीत्? पादयोः नूपुरौ इव, अग्रे मेखला इव, अनन्तरं कण्ठे माला इव, तदनन्तरं किरीटमिव, तत् सदृशं श्लोकं वयम् अन्यत्र अपि दृष्टवन्तः। अत्रापि तथैव धूम्या, अत्र कविः कथम् उत्प्रेक्षते इति चेत्, एषा धूम्या, धूम्या नाम धूमराशिः, धूम्या इति स्त्रीलिङ्गशब्दः, धूमसंहतिः, एषा धूमराशिः यथा यथा उत्थितः भवति, एषा धूम्या यथा यथा उत्थिता भवति, तदा कविः एवं कल्पनां करोति यत् दिक् दिगाङ्गनाः दिक्कन्याः दिक्कन्यानां तत्तत् अवयव अवयवे तत्तत् वस्त्रं वा आभरणं वा तथा शोभां दधाति इति वर्णयति। आदौ नीलां शुकश्रीस्तदनु,
आदौ नीला शुकश्री तदनु,
श्रीस्तदनु मरकताबद्धनीवी विभूतिः,
मरकताबद्धनीवी विभूतिः,
पङ्कभङ्गी क्षणमपि,
कस्तूरी
पङ्कभङ्गी क्षणमपि,
विकचेन्दी विकचेन्दी वरस्रक् सपत्नी, पश्चात् स्निग्धाञ्जनाभा,
पश्चात् स्निग्धाञ्जनाभा,
गगनकुचकटी कण्ठनेत्रेषु जाता,
गगनकुचकटी कण्ठनेत्रेषु जाता,
जगान्तानां तदानीं दशमुखनगरी दाहसंभूतधूम्या,
దశముఖరి దాగ సంపూతి ధూమ్యా.
ఏషా ధూమ్యా, కీదృశీ ధూమ్యా? దశముఖ నగరీ దాహ సంభూత ధూమ్యా. రావణ నగర్యా దహనేన సంజాతా యా ధూమ్యా, సా దిక్కాంతానాం భిన్న భిన్న వస్త్రం వా ఆభరణం వా సంజాత జాతా. జాతా ఇతి ఏవ క్రియ. ప్రథమం కీదృశీ జాతా? ఆదౌ ప్రథమం నీలాం శుకశ్రీ దిగ్ అంగనాహ ఇతి చింతయతు. దిశః దిశః ఏవ అంగనాహ. తాసాం నీల వస్త్రం ఇవ సా శోభాం ధరతి. తదనంతరం తాసాం మేఖల మరకతాబద్ధ నీవీ విభూ. నీవీ ఇత్యుక్తే మేఖల, రశనా ఇతి వదామః. ఉడ్యానం, ఓడ్యానం ఇతి అపి సంస్కృత పదమేవ. మరకతైహి ఖచిత మేఖలా శోభాం వహంతి వహతి సా ధూమ్య. అనంతరం తాసాం వక్షస్థలే కస్తూరి లేపనం ఇతి ఇవ శోభాం వహతి సా ధూమ్య. పునః కంఠభాగే ఇందీవర స్రక్, స్రక్ నామ మాలా. ఇందీవర ఇత్యుక్తే నీలోత్పలః, నీలకమలః. నీలకమలస్య కమలానాం మాలా ఇవ తేషాం తాసాం కంఠే శోభాం వహతి. పశ్చాత్ అంతతో గత్వా నయనయోః కజ్జలం అంజనం అంజనరూప శోభాం వహతి. సా ఏవ ధూమ్యా కథం కథం దిగాంగనానాం దిక్కన్యానాం విభిన్న అవయవేషు కథం కథం శోభాం దధాతి ఇది వర్ణయతి. పదచ్ఛేదం పశ్యామః. ఆదౌ నీలాంశుకశ్రీహి తదను మరకతాబద్ధ, మరకత ఆబద్ధ వస్తుతః అత్ర మరకతాబద్ధ న మరకతాబద్ధ నీవీ విభూతిః కస్తూరి పంకభంగీ క్షణమపి వికచేందీవర స్రక్ సపత్ని పశ్చాత్ స్నిగ్ధాంజనాభా జఘన కుచకటి కంఠనేత్రేషు జాతా దిక్కాంతానాం తదానీ దశముఖ నగరీ దాహ సంభూత ధూమ్యా. ప్రతిపదార్థం పశ్యామః. ఆదౌ ప్రథమే ప్రథమం నీలాంశుకశ్రీ. అంశుకం ఇత్యుక్తే వస్త్రం. కీదృశ వస్త్రం ఇత్యుక్తే చీన వస్త్రం ఇది వదంతి కిల, ఫైన్ క్లాత్, తదేవ అంశుకం.
సిల్క్
తథా ఏతద్ వర్ణనమస్తి. శాకుంతలే అపి చీనాంశుకం ఇవ భవతి. యథా ఆశ్రమతః శకుంతలాం దృష్ట్వా దుష్యంతః గచ్చతి తస్య మనః పృష్ఠతః అస్తి. రథః అగ్రే గచ్చతి తస్య వర్ణనం సాదృశ్యం కవిః కథం వర్ణయతి ఇత్యుక్తే రథః అగ్రే గచ్చతి చేదపి వాయునా రథస్య ధ్వజః పృష్ఠతః భవతి కిల, పృష్ఠతః ధావతి ఇవ తథా తస్య మనః. తత్ర చీనాంశుక ఇది పదస్య ప్రయోగః అస్తి. తథా అత్ర నీలాంశుక, నీల అంబరం, నీలం వస్త్రం. నీలాంశుక శ్రీః ఇత్యుక్తే శోభా, శోభాం ప్రదదాతి, శ్రియం దదాతి ఇది అర్థః. తదను తతః పరం మరకత ఆబద్ధ నీవీ విభూతిః. మరకతైహి ఆబద్ధా నీవీ. నీవీ నామ మేఖల, రశన, ఉద్యానం. మరకత మణివీ ఖచితా నీవీ విభూతిః అపి శ్రీః ఇతి పదస్యైవ పర్యాయపదం. తాదృశీం శోభాం ప్రయచ్చతి. పునః కస్తూరి పంకభంగీ. కస్తూరి నామ మృగస్య నాభౌ యద్రవ్యం లభతే కిల, లభ్యతే కిల, స్నిగ్ధ ద్రవ్యం భవతి. తస్య లేపనం కుర్వంతి మృగద్రవ్యలేపస్య పరిపాటి. పరిపాటి ఇత్యుక్తే తత్ శైలి. తథా మృగద్రవ్యలేపనం కేనాపి కృతమివ సా ధూమ్యా దృశ్యం ప్రయచ్చతి ఇది అర్థ. క్షణమపి తదనంతరం ఏతత్ సర్వం భూమ్యా చంచలా భవతి కిల ఏకత్ర న తిష్టతి మేఘాః ఇవ అతః ఇవ క్షణమపి క్షణమాత్రం యావత్ ఏతత్ దృశ్యం ప్రయచ్చతి పునః అన్యస్మిన్ క్షణే అపరం దృశ్యం దదాతి ఇది అర్థః. క్షణమపి వికచేందీవర స్రక్సపత్ని కంఠ ప్రదేశే వికచ వికచ ఇత్యుక్తే వికసిత ఇందీవర నీలోత్పల స్రక్ స్రక్ ఇత్యుక్తే మాల జకారాంత స్త్రీలింగ స్రక్ స్రజౌ స్రజ వికసిత నీలోత్పల మాలా అత్ర సపత్ని ఇత్యుక్తే సదృశీ ఇతి అర్థః. అన్య సాదృశ్యవాచకం పదం సపత్ని. అగ్రే అపి తస్య వర్ణనం అస్తి. పశ్చాత్ తతః పరం స్నిగ్ధాంజనాభ నయనయోః మసృణ కజ్జల కాంతేః శోభాం ఆవహతి. స్నిగ్ధ అంజనం మసృణం బహు మృదు మృదు అంజనం యథా భవతి తథా తైలమయం యద్ మృదు వస్తు భవతి తద్ స్నిగ్ధం విస్కస్ ఇతి వదామః. తైలస్య స్నిగ్ధత అస్తి స్నిగ్ధగుణ తథా స్నిగ్ధ అంజనాభ. ఏతే ఏతత్ సర్వం కుత్ర కుత్ర జఘన కుచ కటి కంఠ నేత్రేషు దిగాంగనానాం దిక్కన్యానాం తత్తత్ అవయవే ఏతాదృశం ఏతాదృశీం శోభాం వహతి సా ధూమ్యా ఇది భావ. దిక్కాంతానాం దిగ్ దిగంగనానాం తదానీం తస్మిన్ సమయే యదా ధూమ్యా ఉత్థితా తత్ దశముఖ నగరీ దాహ సంభూత ధూమ్యా లంకాదహనాత్ ఉత్పన్నయా ధూమ్యయా. ఆకాంక్షాం న పఠామి భవంతః సావకాశం ద్రష్టుమర్హంతి సాక్షాత్ అన్వయమేవ పఠామి. తదానీం దశముఖ నగరీ దాహ సంభూత ధూమ్యా దిక్కాంతానాం జఘన కుచకటి కంఠ నేత్రేషు ఆదౌ నీలాంశుకశ్రీః తదను మరకతాబద్ధ నీవీ విభూతిః పశ్చాత్ కస్తూరీ పంకభంగీ క్షణమపి వికసితేందీవర స్రక్ సపత్ని తతః పశ్చాత్ స్నిగ్ధాంజనాభా జాతా. సా ఏవ ధూమ్యా ఇత్థం 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 జాతా ఇది భావః. భావార్థః అస్తి హనుమతా దహ్యమానాయాః లంకాయాః ఉత్థితా ధూమసంహతిః ఊర్ధ్వముఖి ఉపరి ఊర్ధ్వముఖి సతి దిశి దిశి ప్రసరతి స్మ. ఏవం ఉపరి ఉత్థీయమానయా అనయా ధూమ్యయా దిగంగనానాం జఘన కటి ఉచ కంఠ నయన యుగలే క్రమశః జఘనే ఇత్యుక్తే ఊరు ఊరు ప్రదేశే నీలవసనస్య శోభాం ధరతి. కటిభాగే మరకత మేఖలాయాః శోభాం ధారయతి. పునః వక్షస్థలే కస్తూరీలేపస్య శోభాం ధారయతి. కంఠే వికసిత ప్రఫుల్ల ఇందీవర పుష్పాణాం మాలా ఇవ కాంతిం ధారయతి. తతః నయనయోః కజ్జలస్య శోభాం దధాతి. సాధూమ్యా శ్రీమద్ వాల్మీకి రామాయణే వికచేందీవర స్రక్ సపత్ని ఇతి పదస్య అత్ర కథం వర్ణితం ఇతి పశ్యామః. తత్రాంబరాత్ అగ్నిః అతిప్రవృద్ధః రుక్షప్రభః కింశుక పుష్పచూడః నిర్వాణ ధూమాకుల రాజయశ్చ నీలోత్పలాభాః प्रचकाशिरे अभ्राः यथा मेघाः तथा नीलोत्पलस्य आभां वहन्ति तथा अत्र एषा धूम्या शोभां वहति। अत्र एकं पदं पश्यतु, विकचेन्दीवरस्रक् सपत्नी इति पदमस्ति।
सपत्नी,
सपत्नी पदम् अत्र अन्यत् किमपि न सूचयति, केवलं सादृश्यवाचकम्। अथर्वणवेदे अपि एक बहु रुचिकरप्रसङ्गः अस्ति, यत्र व्याधीनां विषये उच्यते, ज्वरः। यदा ज्वरः भवति वयं सामान्यतया अनुभवामः पीनसः भवति, कासः भवति, कोल्ड् काफ्। तर्हि तत्र वर्णितमस्ति एवं ज्वरस्य पीनसस्य सहोदरी सहोदरः कासः इति। तथा तत्र एवम् एकैकस्य बन्धुत्वं वर्ण्यते, तथा अत्र विकचेन्दीवरस्रक्सपत्नी सादृश्यवाचकम्। सादृश्यवाचकम् इत्युक्ते सदृश्यं वर्णयितुम् एकं पदं तावदेव, अन्यः कोऽपि अर्थः तस्य नास्ति। विकच इन्दीवरस्रक् सदृशी इति एव अर्थः अस्य। अग्रिमश्लोकं प्रति गच्छामः। षष्टितमः श्लोकः। अत्र किं भवति इति चेत्, एवम् एषा धूम्या उत्थिता अधः लङ्कानगरी दह्यमाना अस्ति, तस्मिन् समये जनाः इतस्ततः विह्वलाः, उत्कण्ठिताः, भीताः, राक्षसाः इतस्ततः धावन्ति। किम् वदन्तः धावन्ति, किम् उच्चारयन्तः आक्रोशन्तः धावन्ति इत्युक्ते, हा तात, हा जननी, हा सुत, हा सहाय, हा पौत्र, हा प्रियसखि, क्वनु हा हतोऽस्मि इत्यादि पौरपरिदेवनभारवाग्भिः आपूरी रावणपुरी शिखिना परीता इति श्लोकः। अस्य अत्र कविना सुन्दरपदानां प्रयोगः कृतः अस्ति। आपूरी इति एव क्रियापदं, रावणपुरी आपूरी शिखिना परीता इति। अग्निना व्याप्ता लङ्कानगरी जनानां क्रन्दनस्वरैः पूरिता अभवत् इति अर्थः। अस्य पदच्छेदं पश्यामः। किं भगिनि?
डाक्युमेण्ट्
न दृश्यते।
न,
अहं चिन्तयामि निवेदिता भगिनी समस्याम् अनुभवति इति चिन्तयामि। न प्राप्तं वा मेल् द्वारा? अस्तु, अहं शेर् करोमि।
अस्तु,
इदानीं दृश्यते। अस्तु, श्लोकं पठामः। हा तात, हा जननि, हा सुत, हा सहाय।
हा तात, हा जननि, हा सुत, हा सहाय।
हा पौत्र, हा प्रियसखि, खलु हा हतोऽस्मि।
हा पौत्र, हा प्रियसखि, खलु हा हतोऽस्मि।
इत्यादि पौरपरिदेवनभारवाग्भिः।
इत्यादि पौर
परिदेवन
भारवाग्भिः।
आपूरि रावणपुरि शिखिना परीता,
आपूरि रावणपुरि शिखिना परीता।
अत्र पदच्छेदे किमस्ति, तृतीय पंक्तौ एव द्रष्टव्यम्। इत्यादि पौरपरिदेवन भारवाग्भिः आपूरि रावणपुरि शिखिना परीता। अत्र आपूरि इति पदमेव क्रियापदम्। आपूरि कर्मणि लुङ् प्रथमपुरुषः एकवचनं, कर्मणि इति कारणेन शिखिन वाग्भिः आपूरि इति। प्रतिपदार्थं पश्यामः, हा तात, हा पितः, हा जननी, हे मातः, हा अपि हे अपि उभयमपि भवति। हा हन्त इति यदा दुःखस्य भाव अभिव्यक्तिः भवति तदा हा इति पदस्य उपयोगः क्रियते शोकस्य वा। हा सुत, हा पुत्र, हा सहाय, हा मित्र, हा पौत्र, हा प्रियसखी। अत्र पतिः पत्नीं सम्बोधयति, हा प्रियसखी। त्वनु कुत्र असि त्वं, हा हतोऽस्मि, अहं नष्टोऽस्मि इत्यादि पौर पुरजनानां परिदेवनं। परिदेवनं नाम विलपनं, विलापः, शोकविलापः एव परिदेवनं। भारवाग्भिः परिदेवन भरित परिदेवनपूर्ण वचोभिः आपूरि पूरिता रावणपुरी लंका शिखिना अग्निना परीता व्याप्ता। आकांक्षां पश्यामः, आपूरि इत्युक्ते आपूर्यते स्म, कर्मणि लुङ्लकारस्य प्रथमपुरुषः एकवचनं। ताभिः आपूरि पौर इत्यादि पौरपरिदेवनभारवाग्भिः पुरजनानां विलपनवचनैः। काभिः वाग्भिः, हा तात, हा जननी, हा सुत, हा सहाय, हा पौत्र, हा प्रियसखी, वनु, हा हतोऽस्मि इति वचनैः। का आपूरि एतैः वचनैः लङ्कानगरी आपूरि इत्युक्ते एतानि वचनानि लङ्कानगरीं व्याप्नुवन्ति इति अर्थः। कीदृशी रावणपुरी, परीता व्याप्ता इति अर्थः। केन परीता रावणपुरी, शिखिना। शिखी इत्युक्ते अग्निः, शिखा अस्य अस्ति इति शिखी, शिखिना अग्निना व्याप्ता रावणपुरी। शिखिना परीता रावणपुरी, एवं प्रकारकैः शब्दैः इत्यादि पौरपरिदेवन भारवाग्भिः आपूरि। भावार्थः, वेगेन प्रस्रियमाणेन वह्निना व्याप्ता लङ्का पुरजनानां, हा तात, हा जननी, हा सुत, हा सहाय, हा पौत्र, हा प्रियसखी, वनु, हा हतोऽस्मि इति शोकक्रन्दनेन पूरिता अभवत्। समानभावः श्रीमद्वाल्मीकिरामायणे अपि द्रष्टुं शक्नुमः। हा तात, हा पुत्रक, कान्तमित्र, हा जीवितेशाङ्ग, हतं सुपुण्यम् इति। इति रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतः घोरतरः सुभीमः। घोरः शब्दः उत्पन्नः केषां, राक्षसानाम्। एवं सर्वैः यदा उच्यते तदा घोरः शब्दः उत्पन्नः। किन्तु यद्यपि प्रायः सर्वे अपि राक्षसाः एतेन पीडिताः अभवन् आञ्जनेयकृतध्वंसनेन, किन्तु वर्जयित्वा महातेजा विभीषणगृहं प्रति क्रममाणः क्रमेणैव ददाः हरिपुङ्गवः इति श्रीमद्वाल्मीकिरामायणे। विभीषणगृहं वर्जयित्वा महातेजाः हरिपुङ्गवः क्रममाणः क्रमेण गच्छन् लङ्कां ददाः। अत्र श्रीमद्वाल्मीकिरामायणे सुन्दरश्लोकः अस्ति, तत्र कविः आदिकविः वदति यत् लङ्कायाः दहनं यद् करोति हनुमान् तत्र काष्ठानां तृप्तिरेव नास्ति, अग्निः न तृप्यति काष्ठैः, यावत् वा काष्ठं स्थापयतु सर्वभक्षः इति वदन्ति किल, सर्वभक्षकः अग्निः, नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा हनुमान् राक्षसेन्द्राणां वधे किञ्चिन्न तृप्यति, न हनुमद् विश्वस्तानां विशस्तानां राक्षसानां वसुन्धरा। वदति यथा अग्निः काष्ठानां तृणानां तृणैः काष्ठैः वा न तृप्यति, तृप्तिं न प्राप्नोति, तृप्तिं न याति, तथा राक्षसेन्द्राणां राक्षसपुर्याः लङ्कायाः दहनेन हनुमान् तृप्तिं न गच्छति, तथैव भूमिः अपि वसुन्धरा अपि राक्षसानां पतनं भारः अस्ति किल, तद् यावत् वा भवतु तत् सा सोढुं सिद्धा, यतः तस्याः अपि शान्तिः भवति। पूर्वं दृष्टं किल मयूरीरूपवसुन्धरया सन्तोषः अनुभूयते, तथैव अत्रापि समानभावः कविः श्रीमद्वाल्मीकिरामायणस्य मूलं भावं संरक्षन्नेव वर्णयति इति वयं सर्वत्र दृष्टान्तं वयं द्रष्टुं शक्नुमः। हनुमद्विशस्तानाम् इत्युक्ते हनुमता दण्डितानां राक्षसानां पतनेन भूमिमाता अपि तृप्तिं न याति, तस्याः अपि सन्तोषः एव इति अर्थः। पौराः इत्युक्ते पुरजनाः, तद्धितपदं पुरस्य इमे जनाः पौराः, पौरपरिदेवनं, परिदेवना इत्युक्ते विलपनम्। इदानीं अग्रे श्लोके कविः वदति यत् यदा धूम्या उत्थिता भवति तदा अग्निकणाः अपि उपरि गच्छन्ति, अग्नेः शिखाः यदा यदा उपरि गच्छन्ति स्फुलिङ्गाः अग्निकणाः अपि उपरि जयन्ते, एते अग्निकणाः यदा उपरि भवन्ति तदा देवलोक कन्यानां पुरतः नीराजनम् इव तत् दृश्यते इति वदति। अनन्तरं ते एव अग्निकणाः, पुनः यदा ते शान्ताः एव न भवन्ति उपशान्ताः, द्वित्राणि दिनानि यावत् अपि ते अग्निकणाः आकाशे देवानां देवकन्यानां पुरतः नीराजनम् इव दृश्यन्ते, पुनः समुद्रे यदा समुद्रं प्रति प्राप्नुवन्ति तदा वडवानलस्य दृश्यं प्रयच्छन्ति इति वदति। यैर्वृन्दारकसुन्दरी जनमुखे नीराजनं निर्मितम् निर्मेघे गगने पियैर्विरचिता
निर्मेघे गगने पियैर्विरचिता
सौदाभिनी संहतिः
सौदाभिनी संहतिः
ते द्वित्राण्यपि वा सराणि न गता
ते द्वित्राण्यपि वा सराणि न गता
निर्वाणमौर्वानल
निर्वाणमौर्वानल
वस्तुतः एकपदं ज्वालाडम्बरमम्बुधौ विदधिरे
ज्वालाडम्बरमम्बुधौ विदधिरे
बालानलोद्यत्कणाः
बालानलोद्यत्कणाः
यैः वृन्दारकसुन्दरी जनमुखे नीराजनं निर्मितं निर्मेघे गगने अपि यैः विरचिता सौदामिनी संहतिः ते द्वित्राणि अपि वासराणि न गताः निर्वाणम् और्वानलज्वालाडम्बरम् अम्बुधौ विदधिरे वाना वालानलोद्यत्कणाः यैः अग्निकणैः वृन्दारकसुन्दरी जनमुखे वृन्दारक इत्युक्ते सुरलोक सुरलोककन्या सुरलोकसुन्दरी जनाः तासां मुखे इत्युक्ते अत्र साक्षात् पुरतः इति एव अर्थः सम्मुखे वदति इति वदामः किल फेसिक् तेषां पुरतः इति अर्थः नीराजनं निर्मितं नीराजनं दीपेन नीराजनं क्रियते किल पूजा समये तथा तस्य एकम् अन्यत् पदमस्ति आरात्रिकम् आरतिः इति वदामः आरात्रिकं कृतम् निर्मेघ गगने अपि निर्मेघे गगने अपि मेघरहिते नभसि अपि यैः यैः इत्युक्ते अग्निकणैः विरचिता सौदामिनी संहतिः विरचिता कृता सौदामिनी इत्युक्ते विद्युत् विद्युत् लेखा श्रेणी विद्युत् यदा सघना भवति डेन्स् भवति तथा कथं दृश्यते सौदामिनी संहतिः बहूनां विद्युल्लतानां सघनत्वं भवति चेत् तद्दृश्यं कथं स्यात् तथा ते अग्निकणाः द्वित्राणि अपि वासराणि द्वित्राणि दिनानि अपि न निर्वाणं गताः उपशमनदशां न प्राप्तवन्तः ते विद्युत्कणाः यदा अग्नितः उत्थितः कणः बहु शीघ्रमेव उपशान्तः भूत्वा पतति किल किन्तु अत्र एते स्फुलिङ्गाः निर्वाणं न गताः द्वित्राणि दिनानि यावत् अतः और्वानलज्वालाडम्बरम् अम्बुधौ विदधिरे यदा ते अधः आगच्छन्ति तदा वडवाग्नेः प्रभापुञ्जशोभां प्राप्नुवन्ति कुत्र समुद्रे अम्बुधौ विदधिरे कृतवन्तः चक्रिरे वालानलोद्यत्कणाः के एतत् सर्वं कृतवन्तः एतादृशशोभां के वहन्ति स्म इत्युक्ते वालानल वाले उत्पन्नः बाले बालात् समुत्पन्नः अग्निः हनुमत् पुच्छाग्नितः उद्यत्कणाः उत्थिताः अग्निकणाः स्फुलिङ्गाः अन्वयः यैः वृन्दारकसुन्दरी जनमुखे नीराजनं निर्मितम् अभवत् यैः निर्मेघे गगने अपि सौदामिनी संहतिः विरचिता ते वालानलोद्यत्कणाः द्वित्राणि अपि वासराणि निर्वाणं न गताः सन्तः और्वानलज्वालाडम्बरम् अम्बुधौ विदधिरे ये हनुमत्पुच्छानलोत्थितस्फुलिङ्गाः सुरांगनानां मुखाग्रे शुभकालसूचकतया नीराजनस्य रूपं धृतवन्तः मेघविहीने आकाशे सान्द्रां विद्युत्प्रभां रचितवन्तः ते एव अग्निकणाः द्वित्राणि दिनानि यावदपि उपशमनदशां न गताः ते अग्निस्फुलिङ्गाः समुद्रे वडवाग्निशोभां प्राप्नुवन् अत्र श्रीमद्वाल्मीकिरामायणे यद्यपि स्तुतिः नास्ति तथापि राक्षसैः एतत् सर्वं दृश्यते किल कथम् लङ्का दग्धा दह्यते तथा तदा हनुमतः पराक्रमं पश्यन्तः एते चिन्तयन्ति कः एषः सामान्यः वानरः तु भवितुं न अर्हति किम् अयं साक्षात् इन्द्रः वज्रायुधधरः अथवा महेन्द्रः त्रिदशः अथवा साक्षात् यमः इति ते एतं दृष्ट्वा आशङ्कन्ते कः एषः इति. अत्र श्लोकाः सन्ति सुन्दरपदानि, अहं पठामि. वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षात् यमो वा वरुणो नीलो वा. वज्री वा महेन्द्रः वा त्रिदशेश्वरः वा. त्रिदशेश्वरः इत्युक्ते स्वर्गलोक ईश्वरः इन्द्रः, इन्द्रस्य एव सर्वं पर्यायपदं. वज्रधरः महेन्द्रः त्रिदशेश्वरः दश देवलोकस्य ईश्वरः इन्द्रः वा अथवा साक्षात् यमः वा अथवा वरुणः वा अथवा अनिलः वा वायुः वा. रौद्रोऽग्निरर्को धनदश्च सोमो न वानरोऽयं स्वयमेव कालः. अथवा एषः रौद्रः वा अग्निः वा अर्कः वा सूर्यः वा धनदः वा कुबेरः वा अथवा सोमः वा चन्द्रः वा. वानरः तु नास्ति, स्वयं साक्षात् कालः एव अत्र आगतः. किं ब्रह्मणः सर्वपितामहस्य लोकस्य धातुश्चतुराननस्य इहागतो वानररूपधारी रक्षोपसंहारकरः प्रकोपः. ते चिन्तयन्ति किं साक्षात् ब्रह्मदेवस्य कोपः एवं रूपं धृत्वा आगतः. किं ब्रह्मणः रक्षोपसंहारकरप्रकोपः. किं ब्रह्मणः कोपः यः, कीदृशः सः कोपः? राक्षसानां संहारकरः प्रकोपः. यः आगतः साक्षात् तत्र रूपं वानररूपं धृत्वा आगतः किं ब्रह्मणः इति पदस्य एव अन्य षष्ठी. सर्वपितामहस्य, सर्वलोकस्य पितामहस्य ब्रह्मणः, धातुः ब्रह्मणः, चतुराननस्य ब्रह्मणः, प्रकोपः एव वानररूपं रूपधृक् अत्र आगतः किम् इति ते चिन्तयन्ति. के राक्षसाः? किं वैष्णवं वा रूपमेत्य रक्षो विनाशाय परं सुतेजः. किं वैष्णवं वा कपिरूपमेत्य, कपि वानररूपं धृत्वा किं वैष्णवं तेजः अत्र आगतः? विष्णोः तेजः एव साक्षात् अत्र अवतीर्णः वा इति ते चिन्तयन्ति. अचिन्त्यमव्यक्तमनन्तमेकं स्वमायया साम्प्रतमागतं वा. साम्प्रतम् इत्युक्ते इदानीम्. इदानीं किं साक्षात् वैष्णवं तेजः अत्र आगतं वा इति ते चिन्तयन्ति. किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः. वैष्णवं सुतेजः, विष्णोः परं तेजः. किम् अत्र कपिरूपं स्वीकृत्य आगतः, आगतं किं? पूर्वं ब्रह्मणः कोपः एव अत्र वानररूपं धृत्वा आगतवान् वा इति वदन्ति. इदानीं ते चिन्तयन्ति विष्णोः तेजः वा अत्र वानररूपं धृत्वा आगतं किम्? कीदृशं तत् तेजः इत्युक्ते अचिन्त्यम्, अव्यक्तम्, अनन्तम्, एकम् इत्युक्ते अद्वितीयं तत्तेजः स्वमायया. साम्प्रतम् आगतं किम्? सम्प्रति अस्मिन् समये अत्र आगतं किम् इति. इत्येवमूचुर्बहवो विशिष्टाः रक्षो गणास्तत्र समेत्य सर्वे सप्राणिसङ्घां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य. इति एवम् ऊचुः इति एवम् उक्तवन्तः. के? बहवः विशिष्टाः रक्षोगणाः, राक्षसगणाः तत्र समेत्य सर्वे अपि मिलित्वा एकत्र सम्भूय सर्वे परस्परम् ऊचुः उक्तवन्तः. किं समीक्ष्य? पुरीं तां समीक्ष्य, दग्धां पुरीं, दग्धां लङ्कापुरीं दृष्ट्वा. कीदृशीं दग्धां लङ्कापुरीं? सप्राणिसङ्घां सगृहां सवृक्षां दग्धां. प्राणिसङ्घैः वर्तमाना लङ्कापुरी, गृहैः वर्तमाना लङ्का, वृक्षैः वर्तमाना, एतादृशी या लङ्का दग्धा जाता, तां लङ्कां दृष्ट्वा सर्वे अपि एवं चिन्तितवन्तः इति अत्र अत्र वयं विरमामः. अग्रिमवर्गे अनुवर्तनं कुर्मः. शान्तिमन्त्रम् उक्त्वा
समापयामः.
सर्वे
धन्यवादः भगिनी.
धन्यवादः.
शुभरात्रि. नमस्ते. शुभरात्रि.